सर्वेभ्यो नमः स्वागतं वयं प्रार्थनां वदामः वृन्दा भगिनी
आं भगिनि ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः 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 ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः 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 ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः 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 श्रीगुरुभ्यो नमः हरि ॐ
धन्यवादः भगिनि अस्तु अद्य वयं षष्ठीविभक्तेः चतुर्थः अभ्यासः अपि पञ्चमः अभ्यासः अभ्यासं कुर्मः तस्य पूर्वं किञ्चित् षष्ठीविभक्तेः पुनस्मरणं कुर्मः अस्तु प्रथमतया वृन्दा भगिनी भवती वाक्यानि वदति वा
आं भगिनि पाण्डवस्य जननी कुन्ती पाण्डवानि जननी कुन्ती पाण्डवानां जननी कुन्ती पाण्डवस्य पत्नी द्रौपदी पाण्डवानां पत्नी द्रौपदी महाराजस्य वचनं शृणोतु महाराजानां वचनं शृणोतु सः ज्येष्ठस्य व्यवहारं पश्यति सः ज्येष्ठानां व्यवहारं पश्यति
समीचीनम् इदानीं चित्राभगिनी भवती अत्र वाक्यानि पठतु
गोपिकायाः प्रियः कृष्णः गोपिकानां प्रियः कृष्णः महिलायाः अधिकं कार्यम् अस्ति महिलानाम् अधिकं कार्यम् अस्ति नद्याः जलं पवित्रं नदीनां जलं पवित्रं जनन्याः वचनं पालयतु जननीनां वचनं पालयतु
समीचीनं भगिनि इदानीं लक्ष्मी भगिनी भवती पठति वा
आं भगिनि पुण्यस्य वर्णः रक्तः मित्रस्य गृहम् अस्ति चित्रस्य सौन्दर्यं पश्यतु पुण्यानां पुष्पाणां वर्णः रक्तः मित्राणां गृहम् अस्ति चित्राणां सौन्दर्यं पश्यतु
समीचीनम् अस्तु अत्र अभ्यासं कुर्मः किञ्चित् अस्तु इदानीं नागेन्द्रमहोदय भवान् पुत्रः जनकः सहोदरः एतेषां
पदानां
अस्तु महोदय अस्तु वृन्दा भगिनी भवती एव करोतु पुत्रः जनकः सहोदरः एतेषां पदानां षष्टि एकवचनं बहुवचनमपि वदतु
पुत्रः पुत्रस्य पुत्राणां जनकः जनकस्य जनकानां
समीचीनं
सहोदरः सहोदरस्य सहोदराणां
समीचीनं भगिनि इदानीं चित्रा भगिनी भवती करोतु
द्वौ पुत्रः दौहित्रस्य दौहित्राणां
दौहित्राणां समीचीनं
दौहित्राणाम्
अम्बा अपि स्नुषा करोतु
अम्बा अम्बायाः अम्बानाम् अम्बानाम् और् अम्बानाम् अम्बानाम् स्नुषा स्नुषायाः स्नुषानाम्
समीचीनम् अस्तु इदानीं वृद्धा सहोदरी भगिनी अपि लक्ष्मी भगिनी भवती करोतु
वृद्धा वृद्धायाः वृद्धानां
समीचीनम्
या सहोदरी सहोदर्याः सहोदर्यानां
सहोदरीनां
सहोदरीनां भगिनी भगिन्याः भगिनीनां
अस्तु इदानीं वृन्दा भगिनी भवती एव करोतु
पुत्री पौत्र्याः पुत्रीणां आयुधं
पुत्र्याः पुत्रीणां
पुत्रीणाम् आयुधम् आयुधानाम्
आयुधम्
आयुधाय आयुधम् आयुधस्य आयुधानां भुवनं भुवनस्य भुवनानां
चित्रं चक्रम् अपि चक्रं
चक्रं चक्रस्य चक्राणां
समीचीनम् तत्र विभक्तिवल्लरी तत्र एत चतुर्थः अभ्यासः अस्ति किल तत्र देवं नमस्कृतवान् तत्र क्लेशः आसीत् किल
आं भगिनि
अद्य वयं तत् पठामः अत्र किं कृतवन्तः किं करणीयं तत्र देवं नमस्कृतवान् अस्ति तत्र देवं नमस्करोति इति पश्यामः अस्तु तत्र देवं नमस्करोति तत्र किं करोति नमस्करोति इति वदामः किन्तु तत्र विभज्यप्रयोगः इति अस्ति तत्र यशोदा कृष्णं पालयति यशोदा कृष्णस्य पालनं करोति तत्र पालयति तत्र एकं नामपदम् अपि करोति अस्तु तत्र पालयति एतत् पालनं करोति इति तदेव अत्र कृतवन्तः वयं तत्र
भगिनि What do you mean by vibhajya prayoga?
That means palayati is a verb that right, Bhagini? So we are using that.
Okay.
Into a nama padam plus karoti.
What is palayati? What was the, I missed it there, Bhagini? What prayogam you were saying?
Vibhajya prayoga. पालयति युस्ते पालनं करोति
सो वी आर ब्रेकिंग इनटू
नामपदं प्लस
नामपदं प्लस द वर्ब
नो नामपदं प्लस करोति
ओके
सो इफ यू से पठति देन पठनं करोति
ओके
अस्तु तत्र यशोदा इति कर्तृपदं प्रथमवाक्ये अनन्तरं कृष्णम् इति कर्मपदं द्वितीया विभक्तिः पालयति क्रियापदं वर्तमानपदं तत् वयं यशोदा कृष्णस्य पालनं करोति इति वयम् उक्तवन्तः तत् किं यशोदा कर्तृपदं प्रथमा एव कृष्णस्य तत्र कर्मपदं षष्ठी भवति. तत् पालयति, तत् पालनं करोति इति विभज्य लिखितम्. उदाहरणं पश्यामः. तत्र कृष्णः मातामहं मुञ्चति. कृष्णः मातामहस्य मोचनं करोति. अस्तु, अत्र अनन्तरं कृष्णः रुक्मिणीं परिणयति. कृष्णः रुक्मिण्याः परिणयं करोति. इदानीं चित्रा भगिनी भवती वदतु.
शिशुपालः कृष्णं निन्दति. शिशुपालः कृष्णस्य निन्दनं करोति. वसुदेवः नदीं तरति. वसुदेवः नद्याः तरणं करोति. वसुदेवः ओके.
इदानीं बृन्दा भगिनी भवती करोतु.
वसुदेवः कृष्णं स्थापयति. वसुदेव कृष्णस्य स्थापनं करोति. कंसः बालकौ अनिष्यति. कंसः अनिविष्यति. कंसः अन्विष्यति. कंसः बालकयोः अन्वेषणं करोति.
समीचीनं. इदानीं लक्ष्मी भगिनी.
कृष्णः द्वारम् उद्घाटयति. कृष्णः द्वारस्य उद्घाटनं करोति. बलरामः द्वारं पिदधाति. बलरामः द्वारं पिदधाति. बलरामः द्वारस्य पिध्वानं करोति.
विभजनं कुर्मः इति इदानीं न कुर्मः. तत्र तदेव अत्र दत्तमस्ति. किमर्थम् इति अहं न जानामि. किन्तु अत्र किं कृतवन्तः एतदेव. किन्तु तत्र किं जातम् अनन्तरं तत्र कृष्णः मातामहस्य मोचनं करोति. अनन्तरं कृष्णः रुक्मिण्याः परिणयं करोति. तत् न वदामः. तत्र कृष्णः मातामहस्य मोचनस्य अनन्तरं कृष्णः रुक्मिण्याः परिणयं करोति. तदेव अत्र वदामः. देवस्य नमस्कारस्य नमस्कारं करोति. नमस्कारस्य अनन्तरं विद्युत् गता. अस्तु, इदानीम् अवगतवन्तः वा? अथवा क्लेशः अपि अस्ति
वा?
तत्र किमर्थं भूतकाले अस्ति इति अहं न जानामि. किन्तु देवस्य नमस्कारस्य अनन्तरं विद्युत् गता.
विद्युत्
गमनस्य
अनन्तरं जनकः आहूतवान्.
जनकस्य
पठितस्य
अनन्तरं पुस्तकस्य पठनस्य अनन्तरं
कोलाहलस्य
श्रुतस्य अनन्तरं
एकनिमिषः तत्र किं भवति तत्र एकनिमिषः तत्र प्रथममस्ति नमस्कारस्य इति द्वितीयं
गमनस्य
द्वितीयः आह्वानस्य
पठनस्य
पुस्तकस्य पठनस्य
अनन्तरं श्रवणस्य
श्रवणस्य
अनन्तरम् आगमनस्य
आगमनस्य
परिशीलनस्य अनन्तरं द्वारस्य
आरोहणस्य ओ आरोहणस्य दिस् इस् एक्चुअली क्वैट टफ
अहं
वि डोण्ट् नो द बेसिक् वर्ड्स् ऐ थिङ्क्
एतत् एतत् गीतासोपाने एव विभजनम् अस्ति
केन् वि जस्ट् स्किप् देट् एण्ड् डु अदर् षष्टि एक्सर्सैज़ फ्रम् अदर् बुक्स्
Yeah, so even this Shashti and the next exercise, 4th and 5th, we'll just ignore them
yes.
for now. Because I think it's too complicated. Maybe when we do that in Gita Sopanam, then maybe we can do this exercise.
Come back to this, yes.
Yeah. So for now, we'll skip this exercise as well as this exercise.
The other two we finished, no?
Yeah, everything else we finished.
So. You finished, so we'll go to Saptami today?
Yeah. Is everybody okay with that or are there any more questions or does anybody want to redo an exercise?
Or can we do it from some other book you have, if, you know, exercises in Shashti?
Yeah, that's what I thought. This is all that they have given.
Then I think we've done, no? We have done both the Prathama Vibhakti as well as... Ekvachana, Bahuvachana we have done.
We'll not do the exercise that is given here. I accidentally scanned it, so... Okay.
Okay.
Sarvanam Padam, I think we have good in that. We've done it in class. Okay, yeah. So Saptami, we'll do what I got in the book and then we'll go to the Bhaktyole. Brinda Bhagni Bhavati, I see both of your names, two of you.
Actually, I just had to get locked out and log in again.
Okay, no problem. One of them left, Pagini, so I can still hear you.
Yeah, left. I left.
One of you left.
Okay, no problem. Let's see.
Pagini, I had one question. Regarding the previous exercise that we were doing, the last statement, Vastuni Kritvan, what will that be? We did the Arohanasya.
Yeah, the so Yanasya Arohanasya.
यानस्य आरोहणस्य अनन्तरं वस्तूनि कृतवान् दट् विल् बि द लास्ट् वन्
या वस्तूनि कृतवान् वी वोण्ट् डु एनिथिङ्ग् आफ्टर् दट्
ओके
अस्तु डोण्ट् नो वै दे गेव् द सक्सेस् लेट्स् गो टु सप्तमी ओके फलानि वृक्षे सन्ति चित्राभगिनी भवति
फलानि वृक्षे सन्ति फलानि वृक्षेषु सन्ति काकाः शैले उपविशन्ति काकाः शैलेषु उपविशन्ति हिमं पर्वते अस्ति हिमं पर्वतेषु अस्ति जलं सागरे अस्ति जलं सागरेषु अस्ति
समीचीनं किञ्चित् एव अभ्यासं कुर्मः तत्र कटः कटे कटेषु अस्तु
कटः कटे कटेषु मार्गः मार्गे मार्गेषु तटः तटे तटेषु कण्डोलः कण्डोले कण्डोलेषु
समीचीनं जननी पुत्रे
स्नेहं प्रदर्शयति
तत्र जननी पुत्रं स्नेहं प्रदर्शयति अत्र न उपयोगं जननी पुत्रे स्नेहं प्रदर्शयति पुत्रः जनके विश्वासं करोति अस्तु इदानीं वृन्दा भगिनी भवती पठतु
पुष्पाणि शाखायां सन्ति पुष्पाणि शाखासु सन्ति पर्णानि लतायां सन्ति पर्णानि लतासु सन्ति जलं नद्याम् अस्ति जलं नदीषु अस्ति आपणाः नगर्यां सन्ति आपणाः नगरीषु सन्ति
नगरीषु सन्ति समीचीनं भगिनि अस्तु एतत् रिक्तस्थलानि पूरयामः अस्तु इदानीं वृन्दा भगिनी भवती करोतु
वाटिका वाटिकायां वाटिकासु पिपलिका पिपलिकायां पिपलिकासु अग्निशाला अग्निशालायां अग्निशालासु भगिनी भगिन्ये भगिन्यां भगिनीषु पुत्री पौत्र्यां पुत्रीषु विथि विथ्यां विथिषु
समीचीनं तत्र अकारान्तपुल्लिङ्गः अकारान्तनपुंसकलिङ्गः इकारान्तस्त्रीलिङ्गः अपि शु 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 इति आगच्छति किन्तु आकारान्तस्त्रीलिङ्गे सु इति आगच्छति अस्तु
पुत्री पुत्र्यां
यस् पुत्र्यां
पुत्रीषु
पुत्रीषु
पुत्रीषु ओके
ओन्ली फार् आकारान्तस्त्रीलिङ्गं दिस् लतासु
बट्
पुत्रीषु
So, bhagini also will be bhaginishu.
Bhaginyam and bhaginishu.
Bhaginishu, putrishu, vithishu.
Vithishu.
Jananyam ātaraha bhavatu. Janani putriyam sneham pradarshayati. And वृन्दा भगिनी भवती वाक्यानि पठतु
वृक्षाः वने सन्ति वृक्षाः वनेषु सन्ति पिपलिकाः सस्ये सन्ति पिपलिकाः सस्येषु सन्ति सस्यानि उद्याने सन्ति सस्यानि उद्यानेषु सन्ति वट् इस् सस्ये भगिनी
I think herbs, bushes like that, Bhagini. What do you think? One minute, let me check, Bhagini. I don't want to say that wrong. Sasyani, right? Siam, maybe. Yes, it's like a plant, Bhagini. It's a plant, Bhagini.
Plant. Dhanyavaad, Bhagini. Sasyani is rabbits, right? Sasyani, Udyane Santi, plants are in the garden, is it?
Yeah. Yeah. For Napums, and it also says,
crop of corn, I don't think there's any in, and fruit. I think it's most likely plant, Bhagini. Plant or crop. अस्तु इदानीं चित्र भगिनी भवती अभ्यासं करोतु.
फलं फले फलेषु नगरं नगरे नगरेषु 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 बीजं बीजे बीजेषु गृहं गृहे गृहेषु भवनं भवने भवनेषु पर्णं पर्णे पर्णेषु.
समीचीनम्. संस्कृते जनाः प्रीतिं प्रदर्शयन्ति. अध्ययने आलस्यं मास्तु. सर्वनाम पदानि अनन्तरं कुर्मः. इदानीं पुस्तके पठामः. तत्र सर्वेषामपि वस्तूनां कोऽपि आधारः भवति एव. एवं यः आधारः भवति तस्य सप्तमी विभक्तिः भवति. कुत्र अस्ति? मम गृहे एकः शुनकः अस्ति. अभ्यासं कुर्मः. तत्र
बेक्ग्रौण्ड् सम् सौण्ड् इस् कमिङ्ग्.
वाट् अबौट् नौ? तत्र कुत्र किं भव अस्ति तत्र किं भवति तत्र इति अभ्यासमस्ति. अस्तु कुर्मः. चित्रभगिनी भवती एव
बेङ्गलूरु. ओके, बेङ्गलूरुनगरे जयनगरम् अस्ति. फलं
न न जयनगरे
बेङ्गलूरुनगरम्. ओके, जयनगरे
बेङ्गलूरुनगरे जयनगरम् अस्ति. जयनगरे उद्यानम् अस्ति.
उद्यानम् अस्ति. ओके, जयनगरे उद्यानम् अस्ति. उद्याने
समीचीनमेव.
ओके,
उद्याने
उद्याने फलम् अस्ति.
सस्यम् अस्ति.
ओके, उद्याने सस्यम् अस्ति. सस्ये फलम् अस्ति. फले बीजानि सन्ति.
समीचीनम्. अस्तु, बेङ्गलूरुनगरे जयनगरमस्ति. जयनगरे
उद्यानमस्ति. सन्ति.
अस्तु, द्वितीयम् द्वितीयं तत्र विद्यालयः प्रकोष्ठः ग्रन्थः नीतविषयाः नीतिविषयाः लक्ष्मीभगिनी भवती करोतु.
विद्यालये प्रकोष्ठः अस्ति. प्रकोष्ठे ग्रन्थालयः अस्ति.
ग्रन्थालयः अस्ति.
अस्ति, ग्रन्थालये ग्रन्थः अस्ति. ग्रन्थे नीतिविषयाः सन्ति.
तृतीयं वृन्दा भगिनी.
पाठशालायां वाटिका अस्ति. वाटिकायां 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 लता अस्ति. लतायां शाखा अस्ति. शाखायां पिपलिका अस्ति.
समीचीनम्. अनन्तरम् अस्तु, चित्रभगिनी भवती एव करोतु.
नगरी विपणिः अस्ति. विपणिः वीथि अस्ति. वीथि प्रदर्शिनी अस्ति. प्रदर्शिनी अधिकारिणी अस्ति.
समीचीनम्. अस्तु, अत्र प्रश्नाः सन्ति वा?
न भगिनी, एक्चुलि नगरी विपण्यां विपणिः अस्ति. एण्ड् देन् विपणि वि आर् नाट् चेञ्जिङ्ग् दिस् इन् टु द सप्तमी.
सारि सारि,
नगरी वुड् बि नगर्यां.
Saptami, you have two ways you can say Matyam or Matau, just for Ekavachanam.
So Vipanim or Vipanyam?
Yes.
So Nagarim, so Nagarya Vipanihi Asti, Vipanyam Vithihi Asti, Vithyav Pradashini Asti, Pradashanya Adhikarani. प्रदर्शन्याम् अधिकारिणी अस्ति अधिकारिण्याम् अधिकारिणी
अस्ति अस्तु विषयरूपान् पठामः अस्तु संस्कृताध्ययने मम महती आसक्तिः अस्ति इति वाक्ये आसक्तेः आधारः संस्कृताध्ययनम् एषः अस्ति विषयरूपः आधारः वयं किम् आसक्तिः अस्ति इति अत्र अस्ति एतादृशस्य आधारस्य अपि सप्तमी भवति तत्र अभ्यासं कुर्मः साहित्य अस्तु तस्मिन् भवतः अनाधारः मास्तु कस्मिन् भवान् भवतः किं मास्तु आधारः मास्तु कस्मिन् मास्तु तस्मिन् मास्तु तस्मिन् भवतः आधारः मास्तु
अनादरः मास्तु
ओ सारी सारी अनादरः मास्तु अस्तु
No, I still didn't get it. What are we?
Yeah, I mean, I didn't understand.
Yeah.
So,
Are these adjectives for which we are using?
Not like that, Pagini. So, Anna. Anna, that means disrespect.
Disrespect, yeah.
So, what they're saying is, how to say?
Why are we using tasmin? I don't understand.
Okay, 1 minute. So here तत्र प्रथम उदाहरणवाक्यमस्ति किल संस्कृताध्ययने मम महती आसक्तिः प्रथमवाक्यमस्ति किल संस्कृताध्ययने मम महती आसक्तिः अस्ति तत्र आसक्तिः इत्युक्ते to fondness tatra etat aham icchami iti astu asakteh aadarah tatra aadarah itukte kim kasmin aada asaktih asti samskrita
adhyayane
aadarah तदर्थं सप्तमी अस्ति in what, not what do you like, in what. Samskritadhyayane mama mahati asakti hi asti.
So in Sanskrit lies the
Sanskrit
like that.
Study of Sanskrit.
In study of Sanskrit, the asakti lies.
Idaniam klesha nasti kila.
No, but why are we saying tasmin here?
That is the saptami of saha.
Oh, okay. So, okay. And bhavatah saptami is or bhavatah only, is it?
So only saha we change to tasmin in the example, because saha is in the brackets to change.
Ekanimsha. Atra bhavatah. So don't show distress. You don't show how to say, you can't really translate this into English, it'll be bad grammar. It'll be like,
so all this
okay, I know.
Things in the bracket we have. Okay,
you don't show disrespect to him. So to him is tasmin. You don't like bhavataha nadaraha.
So to him is tasmin.
Yeah.
So that's the only thing we have changed it into saptami.
And then bhavataha is into shashti.
Okay. So that way as such we change it, no? Anadaraha masu.
Like,
so same way if I go, Sanskrite janaha pritim padashyanti.
Yeah, Sanskrite janaha pritim.
So alankare.
Sharirasya alankare mama.
Alankare
mama abhiruchihi nasti.
Nasti.
Madhurakhadye
etavati pritihi kimartham. Deva.
Why is such a simple thing they have to complicate it with all the things? The exercise is a little convoluted in this. The Abhyasa Pustaka was much easier.
Instructions were much easier.
Concept is, we are able to understand, but the exercises they have given in a very roundabout way.
Yatra bhavati tatra snehasya vishwa tasya chayat patram tasya saptami bhavati. Tatra mata putre visheshatah snihyati. Astu abhyasam kurmaha saha vanchakah atah
tasmin ma vishwasi.
अनन्तरं तत्र स्वशक्तिः स्वशक्तौ स्वशक्तौ
अधिकं
अधिकं विश्वसितवान्
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 विश्वसिति विश्वसितवान्
What is the meaning of this word, the sentence? Yane vishvasya gatah aham murkah sanjatah.
I'm not sure, Bhagini, 1 minute. So, there,
Just,
yeah. So, Murkaha, yeah, so...
Foolish, Murkaha, aham, I'm foolish, Sanjata.
Yeah, Murkaha.
Depending on the vehicle, aham, Vishwasham is depending.
Sanjataha ityukte, I Look. Became.
I became foolish. Yane Vishvasya Gataha, what does it mean then?
Yeah.
Believing Vishwasya in
before
Gataha. Believing in the vehicle.
Believing in the vehicle.
I became foolish.
Yeah, I became foolish.
By believing in the vehicle, I became
foolish. Became foolish.
That's very meaningless sentence.
Meaningless sentence.
Bhagini, what is Vishwasitvan meaning?
Vishwasitvan.
Vishwasitvan.
I believed.
Yeah.
No, it's past tense, no? I believed or I became?
I became.
Yeah. I became. धन्यवाद
और इट्स लाइक विश्वासम कृतवान ना विश्वसितवान और विश्वासम कृतवान है
विश्वसित
हां सो द विश्वासम कृतवान मींस बिलीव ना
हां कोपि नो नूतनः आगतः वा
नागेंद्र नागेंद्र महोदय
नो आई सी समवन यूजिंग द फोन टू नो अहं न जानामि कः आगतः इति
मस्ट बी नागेंद्र महोदय हैज अदर फोन और समथिंग
या कुड बी अस्तु भवतः वचनेषु विश्वस्य अहम् अग्रे गतवान् दशरः पुत्रेषु वदन्तु
दशरथः पुत्रेषु अधिकं
स्निग्धः स्म
यः दुर्जनानां दुर्जनेषु दुर्जनेषु
प्राप्नोति
व्हाट डस दैट मीन भगिनी यह दुर्जनेषु दुर्जने शुड बी दुर्जनेषु और शु
दो हू लाइक बैड पीपल आर नो ऑलवेज
हार्म
मीट विद हार्म और लॉस
हां
लॉस डैमेज अथवा फेलियर
स्नेहति इज मीट विद इज इट
मी
लव
हां लव देम
राजनीति जनाः राजनीति जनेषु
जनेषु
जनेषु भवन्तः कदापि मा विश्वसन्तु
सो डोंट बिलीव इन पीपल इन पॉलिटिक्स इट इज वी हैव रीच्ड अ लेवल वेयर गेस वी कंसिस्टिंग मीनिंग
सः अहं
वक्षस्थलं
प्रहृतवान् मां वक्षस्थले तत्र आरक्षकः
चोरः कण्ठे गृहीतवान्
चोरं
कण्ठे गृहीतवान्
कर्तृपदं कर्तृपदं द्वितीयाविभक्तिसप्तमी क्रियापदम् अस्तु आरक्षकः चोरं
कण्ठे गृहीतवान् राक्षसी सीतां केशे
गृहीतवान्
सीतां केशे गृहीतवान्
केशेषु रामेषु
उत्पीठिका देन् यू केन् से उत्पीठिका सु
बट् केशः इस् पुल्लिङ्ग इस् इट् देन् केशेषु
यस्
बालकः अन्यबालकः
अन्यबालकं
कपोले
कपोले ताडितवान्
माता
प्रीत्या
पुत्रं
मस्तके मस्तके
ताडितवती
मल्लः अन्यमल्लम् उदरे ताडितवान् योधः शत्रुं
कण्ठे
प्रहृतवान्
समीचीनं
प्रहृतवान्
एतत् अभ्यासं वयं गृहपाठरूपेण ददामि अस्तु अस्तु एकम् एव अत्र तत्र इष्यन्य इति अस्ति चेत् एक इन् वन् स्क्वेर् नाट् इन् वन् स्क्वेर् देन्
लैक्ष्यः बालकतः भवन्ति
ओके सो विल् डू द सर्वनामपदानि सर्वनामशब्दाः ताः तस्मिन् तेषु चित्रभगिनी भवती त्रयं
सः तस्मिन् तेषु सा तस्यां तासु तत् तस्मिन् तेषु भवान् भवति भवत्सु भवति भवत्यां भवतीषु भवतीषु अहं मयि अस्मासु त्वं त्वयि युष्मासु कः और् किं कस्मिन्
केषु
केषु सा कस्यां कासु
समीचीनम् I think it's pretty easy. Just bhavati and bhavatsu. Tasu, teshu, tasmin. And then kasmin, teshu. That will be easy if you know tasmin, teshu.
Kasmin, teshu and kasmin, teshu.
Bhavati and bhavatsu.
Bhavati
and bhavatsu. All this is already... All this annotation also came.
Okay.
I also put it into the table page for Saptami. So you can also look there and also for all this.
Okay.
Did I put Bahuvachanam? Yeah, I didn't put Bahuvachanam here. I'll just put that also.
Okay. Okay.
अस्तु नारायणः
तस्मिन् एतस्मिन् प्रीतिं प्रदर्शयति प्रदर्शयति
अनन्तरं
बिकास् इट् इस् एषः राइट् सो एतस्मिन्
भवान् Which one will be?
Third one.
The third one.
Sa.
Narayanaha. Sa.
So, Sa is Tasyam. Tasyam.
Asaptim Pradarshayati.
Esha.
Etasmin.
Etasyam.
Etasyam. नारायण एतस्यां विनयं प्रदर्शयति
प्रदर्शयति then bhavati bhavati is bhavatishu bhavatishu
bhavatishu
maitrim pradarshayati aham mai
mai
mai shraddham pradarshayati
shraddham pradarshayati
te
te
chu
teshu teshu sneham
sneham pradarshayati
pradarshayate
नारायण एतेषु नम्रेषु प्रदर्शयन्ति
भवन्तः भवत्
वी हैव
नाउ भवन्तः वी डिड डू
भवत्
यस वी डिड
इट्सु
भवतेषु
भवतुषु भवत्येषु
वी डिड आल्सो वी डिड भवत्सु
भवान् भवत्सु
भवत्सु
भवत्सु देन् भवती भवतीषु
ईषु
अहं मयि ते
तेषु
ते तेषु नो सः तस्मिन् तेषु सो ते विरण्डु ते एते विरण्डु
तेषु ते एतेषु तेषु तेषु
एतेषु
वयम्
एतदपि गृहपाठरूपेण पुनः कुर्वन्तु एतदपि अस्तु तत्र गृहपाठं कथम् आसीत्
ऐ हव् डन्
या it was not very tough but
it was not a lot of it was there but it was not tough actually
yeah
Okay, let's do a bit more and then we'll go to the homework.
Haro Harishu. Sadhu Harishu.
Chitra Bhagni Bhavati Ikaranta Pulinga Seringa Napunchakalinga.
Okay, Ikaranta. Haro Harishu. Matyam Matau Matishu. Dagni Dadhishu. गुरौ गुरुषु धेन्वां धेनौ धेनुषु मधुनि मधुषु पितरि पितृषु मातृ मातरि मातरि मातृषु कर्तरि कर्तृषु
समीचीनं भगिनि अभ्यासं कुर्मः
नाभि
नाभिः चित्रभगिनी भवती पञ्च
नाभिः इट् विल् बी लैक् मतिः न
नाभिः
हरि हरि
हरौ नाभौ और नाभिषु नाभिषु
नाभिषु
भीरुः भीरौ
भीरुषु
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 रज्जुः रज्जाम् और रजिषु रजिषु सन्ततिः सन्तत्यां सन्ततिषु सन्ततिषु माता स्त्रीलिङ्ग मत्यां मतिषु मातृषु
पञ्चपदानि लक्ष्मी भगिनी भवती करोतु
श्रोता श्रोतरे श्रोतृषु कार्यकर्ता कार्यकर्ता श्रोत्ररे कार्यकर्ता कार्यकर्तरे कार्यकर्तृषु गृणाशुः गृणाशुषु वायुः वायौ वायुषु संस्कृतिः संस्कृत्यां संस्कृतिषु संस्कृत्यौ संस्कृतिषु
एतत् अभ्यासमपि कुर्मः वृन्दा भगिनी भवती भ्राता दशरथः पिता अपि माता एव करोतु
लक्ष्मणस्य भ्रात्री अतीव आदरः आसीत् शबर्याः दाशरथौ अतीव आदरः आसीत् श्रवणकुमारस्य पितरी अतीव आदरः आसीत् भीष्मस्य मातरी अतीव आदरः आसीत्
समीचीनम् इदानीं चित्रा भगिनी भवती
एकलव्यस्य गुरौ अतीव आदरः अस्ति जनकस्य दुहितरी अतीव प्रीतिः अस्ति
आसीत्
आसीत् विवेकानन्दस्य भारतीयसंस्कृत्री अतीव प्रीतिः आसीत् दिलीपस्य धेन्वाम् अतीव प्रीतिः आसीत्
समीचीनम् एतत् एकवचनम् आसीत् इदानीम् अत्र एव बहुवचनमपि पदानि एव बहुवचनं कुर्मः साधुः बहुवचन साधौ
साधौ
साधुषु भ्राता
भ्रातरी भ्रातृषु
दाशरथी
दाशरथिषु
माता मातरी मातरी
मातृषु
गुरु
गुरु
गुरौ
गुरुषु
गुरुषु
दुहिता दुहितरी
दुहितरीषु
दुहितृषु
भारतीयसंस्कृतिषु धेनुषु
धेनुषु
इदानीं बहुवचनं कुर्मः अत्र एकवचनमपि बहुवचनमपि कुर्मः चित्रा भगिनी भवती करोतु
शिशु शिशुषु मुग्धता भवेत् मुनिषु इन्द्रियनिग्रह भवेत् इन्द्रियनिग्रह वाट् डस् इट् मीन् मुनिग्रह
इन्द्रियनिग्रहः
controlling the indriya controlling the varindriya I think
okay
controlling
muni can control the indriya
right.
so no so it will be munau na hari harau na so muni munau utli bhi munau indri nigraha bhavet bhatri bhatru
that is why
bahuvachanam agni that's why
bahuvachanam
bahuvachanam that's why it's munishu
मुनिषु मुनिषु भातृ भातृषु सहमतः भवेत् नेतृ नेतृषु दूरदृष्टि भवेत् स्नायु स्नायुषु शक्तिः भवेत् दधिषु रुचिः भवेत् एण्ड् विपणि विपणिषु स्वच्छता भवेत् यातृषु स्नेहः भवेत्
समीचीनम् अस्तु गृहपाठं कुर्मः
कमलानि सरोवरे सन्ति देट् वास् रैट् पुष्पाणि लिक् सिङ्ग् आल्सो रैट् गजाः वने अटन्ति वने अरण्ये इन्स्ट् आफ् देट् ऐ सेड् वने अटन्ति कार्यालयाः नगरे सन्ति भवन्ति भवन्ति
सन्ति
सन्ति इस् आल्सो रैट् इस् इट् ओके देट्स् रैट् बालकः शय्यायां शयनं करोति
शिशुः शय्या
पत्राणि भूतले पतन्ति ऐ हेव् सेड् भूम्यां पतन्ति
इवन् ऐ हेव् सेड् भूम्यां
पतन्ति देर् आर् मेनि स्टोरीस् महाभारते अनेकाः कथाः विद्यन्ते
विद्यन्ते और् अस्ति अनेकाः कथाः अस्ति
सन्ति
महाभारते
महाभारते अनेकाः
सो फार् एव्रिथिङ्ग् राइट्
ओके दैट्स् राइट्
आत्मा सर्वस्य देहे
भूतले
सर्वस्मिन्
ग्राउंड फ्लोर ऑन द फ्लोर लाइक दैट
ओके
भूतले
जस्ट ग्राउंड
सर्वस्मिन् आत्मा अस्ति आत्मा सर्वस्य देहे अस्ति ऐ हेव् पुट् इस् दट् ओके
ऐ पुट् सर्वदा न सर्वदायां इस् दट् राइट् भगिनि
सर्वस्मिन्
ऐ हेव् सेड् सर्वे जनाः
ऐ एम् नॉट श्योर अबाउट दैट आई थिंक इट्स ओनली सर्वस्मिन्
सर्वस्मिन्
सः आसने आसन्दे और् आसने उपविशति सः
आसन्दे उपविशति
छात्राः मार्गे धावन्ति रैट् नृत्यन्ति युवकाः नद्यां तरन्ति
बालकाः
तरणं करोति इस् दट् रैट् तरन्ति तरणं करोति ऐ हेव् पुट्
या यू जस्ट डिड विभजनं भगिनी
हा ओके करोति देङ्गमा कर्चिदे
अहम् अद्य सायंकाले गच्छामि करेक्ट
अहम् अद्य सायंकाले गमिष्यामि
गच्छामि
आई विल गो न इट्स फ्यूचर टेंस सो गमिष्यामि न
गच्छामि दैट इज आल्सो करेक्ट
गमिष्यामि इज आल्सो राइट
या
क्रीडन्ति इज आल्सो राइट रविवासरे अवकाशः अस्ति
अवकाशम् अस्ति दैट्स व्हाट आई रिटन
विरामः अस्ति
अवकाशः
विरामः
आई हैव पुट अवकाशः
विरामः रविवासरे अस्ति दैट्स व्हाट आई पुट विरामः
अवकाशः इज राइट
या आई थिंक
ओके नॉट बैड सो फार एवरीथिंग वाज राइट प्राणीषु मानव
मनुष्य
I have read प्राणीषु मानवाः उत्तमं सन्ति
प्राणीषु मनुष्यः सर्वश्रेष्ठम् अस्ति
प्राणेषु मनुष्याः उत्तमाः
मनुष्याः
उत्तमाः ओके दिस इज टोटली मिस्ड आउट आई डिडंट गेट इट एट ऑल
उत्तमाने
मम हस्ते गृह्णाति
उत्तमाः
I put मह्यं हस्तं
मम
हस्तं हस्ते
हस्ते सप्तमी गृह्णाति पिता पुत्रं स्नेहं करोति
पितरि प्रीतिः पुत्रे
Okay. I have written पितृः पुत्रं स्नेहं करोति षष्टि ओके
जनकस्य प्रीतिः
नमस्कारः नीना
नमस्कारः
पुत्रे भवान् मयि विश्वसिति ओके दिस् ऐ डिडन्ट् गेट् इट्
या बिकास् वी जस्ट् लर्न्ड् इट् टुडे राइट्
या भवान् मयि विश्वसिति पितुः आदरं करोति
जनके आदरः भवतु
भवतु रात्र्याम् ऐ हेव् पुट् रात्र्याम् अहं मह्यं शय्याम् उपविशति
Yeah, that's also correct.
Aham aham mayam shayyam upavishati is right, is it?
I think.
Okay.
Anantaram, Sharadayaha haste palamasti.
I said Sharadayam haste phalam.
Sharadayaha.
Oh, yaha. Okay, yeah. That's Sharada is Sita. Chashake dugdham asti. And balika svasyah vastrani yana petikayam kshipati
nikshipati
nikshipati is it? Okay kshipati I have put okay shakani sheeta kapata grihe santi
prashitake
शीत कपाट गृहम् आल्सो दे हेड् पुट् एस् रेफ्रिजरेटर् शाकानि शीत कपाट यस् प्रशीतके ओके प्रशीतके सन्ति
सायङ्काले
आपणकः आपणे स्वस्य आपणे पठति
स्वस्य आपणे
Swasya means what?
In his own.
In his shop. Okay. Okay, this I didn't get. So, I Aapane Patati.
Atava Aapane kaha Tasya Aapane
Patati. Patati.
Prashna ha santiva?
Not bad. At least 80% was right. This time.
Samitin. विभज्यप्रयोगः तस्य विषये प्रश्नाः सन्ति वा
सो भगिनि डिड् यू फिनिश् दि सेवेन्थ् विभक्ति टुडे
यस्
यस्
ओके ओके ऐ मीन् ऐ हेव् नाट् ऐ हेव् हेड् अ लिटल् बिट् आफ् अ ब्रेक् सो ऐ विल् कम् बेक् अण्ड् डू आल् दीस् होम्वर्क्स् अण्ड् एव्रिथिङ्ग् लेटर् So, Bhagini, let me know when we can discuss the timing aspect.
Yeah. 1 minute, Bhagini. We'll just let's just check if there are any other questions. No questions. Okay. I don't want to start Sambodhanam just today. So for homework, there will be that crossword thing.
Yeah.
And anybody confused on how to do the crossword, I can explain it.
You can explain it once.
Okay. So if you have, I won't give out any of the answers. Sachitraha palakaha asyam patrikayam bhavanti. So that answer, one letter. I'll tell you, it's, second or third one, there's half letter and one full letter in one. I'm not sure which.
I know the answer for this one.
Okay, I got it.
It's actually on the almost on the back of Vibhakti Valari. It gives you a hint.
Nataya. Okay.
So that, and then, so that's the answer for the first, second question, third, like you go like that, and you can fill out everything.
So it is all only horizontal, there's no vertical question,
no
is it?
Vertical.
Okay.
I'm not sure if they make a word vertically. I'm not sure, I'll see. Okay. Any other questions then? No questions. And this, and also this we did in class, but we'll redo it as homework also.
Okay.
The second one, it should be Latayam. No, Pushpani Kutu Latayam. So it's only three they have given.
Yeah, so okay. 1 minute, Bhagini. So La.
Lataha, it should be.
Yam. Yam, okay. Yam will come in one.
Yeah, that's what I'm saying. It will be one full letter plus a half letter in one itself. It will be like
it. It will be, the yam will be with the dot on the top, Bhagini, maybe.
Oh, not with ma. Okay, yeah. Yam, not ma. Got it.
Any other questions?
No. Shouldn't this be Latasu, since it's Pushpani, Kutra, Vipasanti? No. Creeper, Creepers?
Latayam.
Latayam.
Or maybe you can also say Latasu. You can also say Latasu because it also fits.
Bahu is, you know, Patrani, Kutra, Vikasanti. Latasu
so
also.
You can write. So we'll just end with the Shanti Mantram, Lakshmi Bhagini.
Shall I start, Bhagini?
Yes, Bhagini.
Sarve Bhavantu Sukhinaha. Sarve Santu Niramayaha. सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः ॐ शान्ति शान्ति शान्तिः ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ